एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण अस्यैव वैशाख मासस्य अष्टाविंशे दिवसे सोमवासरे उपवेक्ष्यमाणं संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशं सम्बोधयितुं राष्ट्रपतेः समक्षम् अनुरोद्धुं निर्णीतमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन राष्ट्रपतिं पौडेलं संसदि सम्बोधनार्थम् अनुरोद्धुं निर्णीतमस्ति। उपवेशे उपस्थित्यर्थं सर्वान् सांसदान् आह्वातुं च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता शिक्षामन्त्री सस्मितपोखरेलः असूचयत्। एवमेव उपवेशेन विभिन्नेषु देशेषु विद्यमानान् महावाणिज्यदूतान् वाणिज्यदूतान् च पदमुक्तान् विधातुम् अन्ताराष्ट्रिय श्रम संघटनस्य बाध्यकारिणां श्रम महासन्धिना सम्बद्धायाः मान्यताक्रमस्य व्यवस्थायाः अनुमोदनाय संघीय संसत् समक्षं प्रस्तुत्यै स्वीकृतिं प्रदातुं निर्णीतमस्तीति मन्त्री पोखरेलः असूचयत्। सर्वकारस्य प्रवक्ता शिक्षामन्त्री च पोखरेलः सर्वोच्च न्यायालयस्य प्रधान न्यायाधीशपदे विहितं परामर्शनं विगतेषु सम्भूतानां त्रुटीनाम् अपसारणस्य प्रयासोऽस्तीति अवदत्। तदवसरे मन्त्री पोखरेलः रासोपा दलस्य निर्वाचन प्रतिबद्धता पत्रस्य घोषणायाः अनुसारेण एव विद्यार्थी संघटनानि निरस्तीकृतानि सन्तीति स्पष्टीकृतवान्। परराष्ट्र मन्त्रालयेन लिम्पियाधुरा लिप्पुलेक कालापानी क्षेत्रेषु दृष्टा सीमा समस्या कौटनीतिक माध्यमेन समाधातुं सर्वकारः तत्परोऽस्तीति ज्ञापितं वर्तते। मन्त्रालयेन ह्य आयोजिते कार्यक्रमे परराष्ट्र मन्त्रालयस्य प्रवक्ता लोकबहादुर पौडेल क्षेत्री लिप्पुलेकस्थानस्य सन्दर्भे सर्वकारस्य पक्षतः धारणा स्पष्टीकृतास्तीति असूचयत्। सर्वकारेण महाकाली नद्याः पूर्वक्षेत्रे विद्यमाना लिम्पियाधुरा लिप्पुलेक कालापानी भूमिः नेपालस्य एवास्तीति तथ्यं षोडशोत्तराष्टशततम विक्रमवर्षस्य सुगौली सन्धौ स्पष्टतया उल्लिखितमस्तीत्यतः अस्यामेव दृढतायां नेपालेन कौटनीतिक समाधानस्य प्रयासः विधीयमानोऽस्तीति समस्पष्टयत्। प्रवक्ता पौडेलः विषयोऽयम् उभौ एव प्रतिवेशिनौ चीन भारतौ जानीत इति भूयो भूय स्मारितोऽस्तीति असूचयत्। संसदीय श्रवण समित्या प्रस्तावितस्य प्रधान न्यायाधीशस्य डॉ मनोज कुमार शर्मणः संसदीय श्रवण प्रक्रिया ह्यस्तनदिवसात् प्रारब्धास्ति। बृहस्पतिवासरे सांविधानिक परिषदा प्रधान न्यायाधीश पदे शर्मणः नाम परामृष्टमासीत्। तदनु ह्यस्तनदिवसे श्रवण समितेः उपविष्ट आसीत्। श्रवण समितेः स्तनोपवेशेन प्रक्रियायाः अग्रेवर्धनस्य क्रमे प्रस्तावितस्य प्रधान न्यायाधीशस्य विरुद्धे न्यायिक निवेदनं प्रदातुम् आहूतमस्ति। प्रस्तावितस्य प्रधान न्यायाधीशस्य श्रवणाय दशदिवसानां समयं प्रदाय न्यायिक निवेदनं प्रदातुम् आहूतमस्तीति समितेः सभापतिः बोधनारायण श्रेष्ठः असूचयत्। सर्वकारेण देशस्य अष्टानां विश्वविद्यालयानां रिक्तेषु उपकुलपतिपदेषु नियुक्तेः प्रक्रिया प्रारब्धास्ति। नियुक्तिप्रक्रियायां पारदर्शिनीं योग्यता प्रणालीं निष्पक्षतां च सुदृढे विधातुं च सर्वकारेण विभिन्नानां विश्वविद्यालयानाम् उपकुलपतिनां प्रचयन परामर्शन सम्बद्धम् एतद् विक्रमवर्षीयम् एकीकृत कार्यविधिं स्वीकृत्य आवेदनानि आहूतानि सन्ति। विज्ञसमितेर्माध्यमेन प्रारम्भिकं प्रचयनं विधाय लघुसूच्यां प्रचितानां प्रत्याशिनां विषये विदुषां साधारणजनानां परामर्शयाचनस्य व्यवस्था कार्यविधौ वर्तते। सर्वकारेण त्रिभुवन विश्वविद्यालयस्य पूर्वाञ्चल विश्वविद्यालयस्य पोखरा विश्वविद्यालयस्य लुम्बिनी बौद्ध विश्वविद्यालयस्य कृषिवन विश्वविद्यालयस्य मध्यपश्चिम विश्वविद्यालयस्य सुदूरपश्चिम विश्वविद्यालयस्य राजर्षि जनक विश्वविद्यालयस्य च उपकुलपतिनां कृते आवेदनानि आहूतानि वर्तन्ते। समित्या विभिन्नानां विश्वविद्यालयानाम् उपकुलपतिनां प्रचयनेन परामर्शेन च सम्बद्ध एतद्विक्रमवर्षीय कार्यविधि शिक्षा विज्ञान प्रविधि मन्त्रालयस्य वैव सञ्जाले स्थापितोऽस्ति। जलवायु विज्ञान विभागेन अस्मिन् वर्षायामे नेपाले सामान्यतः वर्षाणां नैयून्यस्य तापक्रमस्य विद्धेश्च प्रक्षेपणं विहितमस्ति। विभागेन ह्य आयोजिते कार्यक्रमे प्रक्षेपणमिदं सार्वजनिकीकृतमस्ति। वर्षायामस्य ऋतुकालिकावस्थायाः विषयं ज्ञापयता जलवायु विज्ञान विभागस्य जलवायुविदा सुदर्शन हुमागा इत्यनेन आगामिनि वर्षायामे देशस्य अधिकेषु स्थानेषु सामान्यतः वर्षः न्यूनः भविष्यन्ति इति सम्भावना अस्ति इति ज्ञापितम् वर्तते। असौ आगामिनः ज्येष्ठ मासस्य अष्टादश दिवसादारभ्य आश्विन मासस्य चतुर्दशम् दिवसं यावत् स्वल्प वृष्टिः अत्यधिकः तापश्च भविष्यतः इति अज्ञापयत्। सर्वोच्च न्यायालयेन भूमिहीनानाम् वसतीनाम् अपसारण सम्बद्धस्य सर्वकारीय निर्णयस्य विरुद्धे पञ्जीकृते याचिका निवेदने अन्तरिमादेशः प्रदत्तोऽस्ति। ह्य न्यायाधीशयोः कुमार रेग्मिणः नित्यानन्द पाण्डेभिदस्य च संयुक्त न्यायपीठेन आदेशोऽयं प्रदत्तोऽस्ति। आदेशे निर्दिष्टां चरणबद्ध प्रक्रियां विनैव भूमिहीनानाम् अव्यवस्थितावासानां च जनानाम् अपसारण कार्यं विस्थापन कार्यं वा न कर्तुं न कारयितुं च निर्दिष्टमस्ति। अथ च सम्प्रत्येव अपसारितानां भूमिहीनानाम् अव्यवस्थितावासानां च जनानाम् आवश्यकतायाः अनुसारेण आवासस्य शिक्षायाः स्वास्थ्यस्य भोजनस्य च व्यवस्थां विधातुमपि सर्वोच्च न्यायालयेन आदिष्टमस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य नेतृत्वे काष्ठमण्डप उपत्यका विकास प्राधिकरणेन भूमिहीनानाम् अव्यवस्थितावासानां च जनानाम् एकीकृतं वैद्युताङ्कनयुतं विवरणं संकलयिष्यते। प्रधानमन्त्रिणः कार्यालयस्य अनुसारेण वैद्युताङ्कन विवरण संकलनस्य पूर्वकार्यम् अन्तिमे चरणे प्राप्तमस्ति। कार्यालयस्य अनुसारेण प्रथमे चरणे सम्प्रति काष्ठमण्डपस्य आश्रयस्थलेषु स्थापितानां बहिस्थितानां च जनानां तदनुक्रमशः अन्येषु जनपदेषु स्थितानां जनानामपि विवरणं संकलयिष्यते। सर्वकारेण आश्रयस्थलेषु न निवसतां जनानां कृते सार्वजनिक सूचनां प्रकाश्य निर्धारिते समये एव आवश्यक हि प्रपत्रैः सह विवरण संकलन केन्द्रे उपस्थित्यर्थम् अनुरोधो विधास्यते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति कलाकारः सर्जनानि संस्कृतयश्च राष्ट्रस्य निधयः वर्तन्ते। ह्यः शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजितं नातिकाजी राष्ट्रिय संगीत सम्मान पुरस्कार वितरण समारोहं सम्बोधयन् राष्ट्रपतिः पौडेलः कलया साहित्येन संगीतेन च समाजे एकतायाः सहिष्णुतायाः समृद्धेश्च विकासाय योगदानं प्रदास्यते इति प्रावोचत्। तदवसरे राष्ट्रपति पौडेलः विभिन्नान् एकविंशतिं कलाकारान् सममानयत्। सल्यान जनपदे ह्य दूरापन्नायां ट्रैक्टर यानस्य दुर्घटनायां एको जनो मृतोऽस्ति। दुर्घटनायां द्वौ जनो आहतौ स्तः। ह्य दिवा दार्मा ग्रामपालिकायाः फारूला चौरस्थानात् भूस्खोला स्थानं प्रति प्रस्थीयमानं ट्रैक्टर यानं दुर्घटितमासीत्। दुर्घटनायां दार्मा ग्रामपालिकायाः द्वितीयस्य ओडा क्षेत्रस्य सप्तदश वर्षीयः ट्रैक्टर यान चालकः प्रदीप बीकः मृत इति प्रहरिणा ज्ञापितं वर्तते। इति समाचारः।